इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। पाकिस्तानस्य राजधान्याम् इस्लामाबादे अमेरिका ईरान देशयोः मध्ये वार्तालापः प्रचलति। व्हाइट हाउस इत्यनेन दृढीकृतं यत् वार्तालापः प्रत्यक्षरूपेण प्रचलति। तेनोक्तं यत् एतत् उपवेशनं वाशिंगटन तेहरानयोः मध्ये दशकेषु उच्चतमस्तरीय प्रत्यक्ष संवादस्य निदर्शनमस्ति। व्हाइट हाउस इत्यनेन अग्रे उक्तं यत् इस्लामाबाद नगरे अमेरिका देशस्य विशेषज्ञानां पूर्णदलम् उपस्थितमस्ति। अपर विशेषज्ञाः वाशिंगटन नगरात् वार्तालापस्य समर्थनं कुर्वन्तः सन्ति। वार्तालापावधौ अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् ईरान देशेन सह व्यवहारः भवेद् न वा अस्य विषयस्य कापि चिन्ता नास्ति। वार्ताहरैः सह वार्तालापं कुर्वन् राष्ट्रपतिः ट्रम्पः अवदत् यत् होर्मुज जलसन्धौ कार्याणि प्रचलन्त्येव, अपि च अमेरिका देशः पूर्वमेव विजितवान् इति दृढीकृतवान्। ईरानस्य प्रशासनिक माध्यमानुसारं अधुना इस्लामाबाद नगरे तृतीय चरणात्मिका निर्णायक वार्ता प्रचलति। पूर्वद्वयोः चरणयोः अनन्तरम् इदम् ईरान देशस्य विवादस्य समाप्त्यर्थं सूचितस्य दश बिन्दु प्रस्तावानां विषये सहमतिं प्राप्तुम् अन्तिम प्रयासरूपेण दृश्यते। अत्रान्तरे एकस्मिन् वीडियो इति दृश्य श्रव्य वक्तव्ये इज़राइल देशस्य प्रधानमन्त्री बेंजामिन नेतन्याहु वर्यः अवदत् यत् ईरान विरुद्धम् अभियानम् अधुनापि न समाप्तम्, परञ्च इज़राइल देशः ऐतिहासिकं लाभं प्राप्नोत्, ईरान देशस्य परमाणु महत्वाकांक्षां च विफलम् अकरोत्। पश्चिम बंगाल राज्ये विधानसभा निर्वाचनाय प्रचारः तीव्रतरं जातम्, यत्र सर्वेषां प्रमुख राजनैतिक दलानां प्रमुखाः नेतारः विभिन्नेषु मण्डलेषु जनसभां सम्बोधयन्ति। प्रधानमन्त्री तथा भाजपेति दलस्य वरिष्ठः नेता नरेन्द्र मोदी ह्यः कटवा, जंगीपुर, कुशमण्डी इत्येतेषु क्षेत्रेषु तिस्रः सभाः अकरोत्। सः राज्ये परिचयस्य अतिक्रमणस्य च विषये भाजपेति दलस्य मतं प्रकटयन् उक्तवान् यत् तुष्टीकरणस्य राजनीतिं समापयितुं समान नागरिक संहितां प्रवर्तयितुं प्रतिज्ञामपि कृतवान्।
राष्ट्र की सुरक्षा हमारे लिए सर्वोपरि है। भाजपा का संकल्प है बंगाल में यूसीसी लागू कर तुष्टीकरण की राजनीति को हमेशा के लिए खत्म किया जाएगा। अब बंगाल फैसला कर चुका है अपनी अस्मिता, अपनी पहचान और अपने भविष्य के लिए अब बंगाल आशोल परिवर्तन करके रहेगा।
प्रधानमन्त्री सिलीगुड़ी नगरस्य बिहार मोड़तः स्टेशन मोड़ पर्यन्तं पथ प्रदर्शने अपि भागम् अगृह्णात्। भाजपेति दलस्य वरिष्ठः नेता अमित शाहः अपि पश्चिम बंगाल राज्यस्य बांकुरा पुरुलिया नगरयोः जनसभाम् अभिसम्बोधितवान्। सः अवदत् यत् राज्ये सत्ताग्रहणानन्तरं पञ्चचत्वारिंशत् दिवसेषु राज्य सर्वकारस्य कर्मचारिणः सप्तम वेतनायोगस्य लाभाः प्राप्स्यन्ति। तृणमूल कांग्रेस दलस्य प्रमुखा ममता बनर्जी इत्येषा बांकुरा, पश्चिम मिदनापुर, झारग्राम इत्येतेषु स्थानेषु जनसभाम् अभिसम्बोधितवती। सा भाजपेति दलम् एनआरसी द्वारा धार्मिक ध्रुवीकरणेन च बंगालस्य विभाजनं कर्तुं षड्यन्त्रं कर्तुम् इति आरोपितवती। पश्चिमबंगस्य चतुर्नवत्यधिक द्विशतासनानां कृते विधानसभायाः निर्वाचनम् अप्रैलमासस्य त्रयोविंशति ऊनत्रिंशत् दिनांके च द्वयोः चरणयोः भविष्यति। विदेशमन्त्री डॉ एस जयशंकरः संयुक्त अरब अमीरात देशस्य द्विदिवसीय यात्राम् आरब्धवान्। पश्चिमेशिया देशे वर्तमान संघर्षस्य तथा क्षेत्रे भारतीय नागरिकाणां कल्याणस्य चिन्तायाः मध्ये अबुधाबी नगरे उच्चस्तरीया वार्ता कृता। आईपीएल क्रिकेट क्रीडायां गतरात्रौ चेन्नई नगरे चेन्नई सुपर किंग्स दलेन दिल्ली कैपिटल्स दलं त्रयोविंशति धावनांकैः पराजितम्। अन्यस्यां स्पर्धायां ह्यः सायंकाले न्यू चण्डीगढस्य मुलानपुरे पंजाब किंग्स दलेन सनराइजर्स हैदराबाद दलं षट् स्तोभैः पराजितम्। इति वार्ताः।